कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूला कर्तव्यं दैवमान्निकम् उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुड़ध्वज उत्तिष्ठ कमलाकांता त्रैलोक्यं मंगलं कुरु मातः सुमष्ट जगतां मधुकैटभारे वक्षो विहारिणी मनोहर दिव्यमूर्ते श्रीस्वामिनिश्रित जनप्रिय दानशीले श्रीवेंकटेश दैते तव सुप्रभातम् तव सुप्रभातमरविंद लोचने भवतु प्रसन्न मुखचंद्रमंडले वृषशैलनाथ दैते तव सुप्रभातम् तडि सप्तभुषी समुपास्य संध्या माकाश सिंधु कमलानि मनोहराणि आदाय पादयुगमार्चयितुं प्रपन्नाः शेषाद्रिशेखर विभो तव सुप्रभातम् पञ्चाननब्ज भाव षण्मुख वासवाद्या त्रिविक्रमादिचरितं विबुधाः स्तुवन्ति भाषापति पठति वासरा शुद्धिमारात् शेषाद्रिशेखर विभो तव सुप्रभातम् ईषत् प्रफुल्ल सरसीरुह नारिकेला पूगुद्रुमादि सुमनोहर पालिकानां आवाति मनिल मंद सह दिव्य गंधै शेषाद्रिशेखर विभो तव सुप्रभातम् उन्मील नेत्रयुगमुत्तम पंजरस्ताः पात्रावशिष्ट कदली फल पायसानि भुक्त्वा सलीलमाडकेळि शुका पठन्ति शेषाद्रिशेखर विभो तव सुप्रभातम् तंत्री प्रकर्ष मधुरस्वनया विपञ्च्याः कायत्यानंत चरितं तव नारदोपि भाषा समग्रम सत्कृत चारुरम्यं शेषाद्रिशेखर विभो तव सुप्रभातम् भृंगावली च मकरन्दरसानुविद्ध झंकार गीत निनदैः सह सेवनाय निर्यात्युपांत सरसी कमलोदरेभ्यः शेषाद्रिशेखर विभो तव सुप्रभातम् येषा गणेन वरदध्नि विमध्यमाने घोषालयेषु दधिमन्तन तीव्रघोषाः रोषात्कलिं विदधते ककुभश्च कुम्भाः शेषाद्रिशेखर विभो तव सुप्रभातम् पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्याः भेरीनिनादमिव बिभ्रति तीव्रनादम् शेषाद्रिशेखर विभो तव सुप्रभातम् श्रीमन्नभीष्टवरदाखिलोकबन्धो श्रीश्रीनिवास जगदेकदयैकसिन्धो श्रीदेवतागृहभुजान्तर दिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीस्वामी पुष्करिणिकाप्लवनिर्मलाङ्गाः श्रेयार्थिनो हरिविरिञ्चि सनन्दनाद्याः द्वारे वसन्ति वरनेत्र हतोत्तमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् श्रीशेषशैलगरुडाचलवेङ्कटाद्री नारायणाद्रिवृषभाद्रिवृषात्रिमुख्याम् आख्यां त्वदीयवसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् सेवापराः शिवसुरेशकृशानुधर्मा रक्षोऽम्बुनाथ पवमानधनाधिनाथाः बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः श्रीवेङ्कटाचलपते तव सुप्रभातम् धाटीषु ते विहगराज मृगाधिराज नागाधिराज गजराज हयाधिराजाः स्वस्वाधिकारमहिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् सूर्येन्दुभौमबुधवाक्पतिकाव्यशौरी स्वर्भानुकेतु दिविशत्परिषत्प्रधानाः त्वद्दासदासचरमावधिदासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम्। तत्पादधूलिभरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः कल्पागमाकलनयाकुलतां लभन्ते। श्रीवेङ्कटाचलपते तव सुप्रभातम्। त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीं परमांश्रयन्तः मर्त्या मनुष्यभुवने मतिमाश्रयन्ते। श्रीवेङ्कटाचलपते तव सुप्रभातम्। श्रीभूमिनायकदयादिगुणामृताब्दे देवादिदेवजगदेकशरण्यमूर्ते श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम्। श्रीपद्मनाभपुरुषोत्तमवासुदेव वैकुण्ठमाधवजनार्दनचक्रपाणे श्रीवत्सचिन्नशरणागतपारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम्। कन्दर्पदर्पहरसुन्दरदिव्यमूर्ते कान्ताकुचाम्बुरुहकुट्मललोलदृष्टे कल्याणनिर्मलगुणाकरदिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम्। मीनाकृते कमठकोलनृसिंहवर्णिन् स्वामिन् परश्वथतपोधनरामचन्द्र शेषांशरांशयदुनन्दनकल्किरूपा श्रीवेङ्कटाचलपते तव सुप्रभातम्। एलालवङ्गघनसारसुगन्धितीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णं धृत्वाद्यवैदिकशिखामणयः प्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम्। भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैककुभो विहङ्गाः श्रीवैष्णवासततमर्थितमङ्गलास्ते धामाश्रयन्ति तव वेङ्कटसुप्रभातम्। ब्रह्मादयः सुरवराः समहर्षयस्ते सन्तः सनन्दनमुखास्त्वत योगिवर्या धामान्तिके तव हि मङ्गलवस्तुहस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम्। लक्ष्मीनिवासनिरवद्यगुणैकसिन्धो संसारसागरसमुत्तरणैकसेतो वेदान्तवेदनिजवैभवभक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम्। इत्थं वृषाचलपतेरिह सुप्रभातम्। ये मानवा प्रतिदिनं पठितुं प्रवृत्ताः तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते।